शमे मयि वीरं स्वपादं दये मुखं अरिवार्त्तकैगळ् दृष्टिवर्णाश्रमवृत्तं वर्णवार्पादरण्ये किविगळ् सत्यशौचद्वयं केळ् समयं नाल्कुस्तनं वाञ्छितसुखततिपोल् देवताभक्तिजीवं शमे पुच्छं धर्मधेनुस्थिति पशुपतिन्दिन्तु वर्तिपुदल्ते।